ओम नमो भगवते वासुदेवाय। अथ त्रयोविंशोऽध्यायः। मैत्रेय उवाच, पितृभ्यां प्रस्थिते साध्वी पतिमिंगितकोविदा, नित्यं पर्यचरत्प्रीत्या भवानीव भवं प्रभुं, विश्रम्भेणात्मशौचेन गौरवेण तमेन च, शुश्रूषया सौहृदेन वाचा मधुरया च भोः, विसृज्य कामं दम्भं च द्वेषं लोभमगं मदम्, अप्रमत्तोऽद्यता नित्यं तेजीयान् समतोषयत्, स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम्, दैवाद्गरीयसः पत्युराशासानां महाशिशः, कालेन भूयसाक्षामां कर्षितां व्रतचर्यया, प्रेमगद्गदया वाचा पीडितकृपया ब्रवीत्। कर्दम उवाच, तुष्टोऽहमद्य तव मानविमानदाया, शुश्रूषया परमया परया च भक्त्या, यो देहिनामयमतीव सुहृत्स्वदेहो नावेक्षितः समुचितः क्षपितुं मदर्थे, ये मे स्वधर्मनिरतस्य तपःसमाधि विद्यात्मयोगविजिता भगवत्प्रसादाः, तानेव ते मदनुसेवनया वरुद्धान् दृष्टिं प्रपश्य वितराम्य भयान् शोकान्, अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ विभ्रंशितार्थरचनाः किमुरुक्रमस्य, सिद्धासि भुङ्क्ष्व विभवान् निजधर्मदोहान् दिव्यान्नरैर्दुरधिगान् नृपविक्रियाभिः, एवं ब्रुवाणमबलाखिलयोगमाया विद्याविचक्षणमवेक्षगताधिरासीत्, सम्प्रश्रय प्रणयविह्वलया गिरेशद्व्रीडावलोक विलसद्धसिताननाः। देवहूतिरुवाच, राद्धं बत द्विजवृषै तदमोघयोग मायाधिपे त्वयि विभो तदवैमि भर्तः, यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो भूयाद्गरीयसि गुणप्रसवस्सतीनाम्, तत्रेति कृत्यमुपशिक्ष यथोपदेशं येनैष मे कर्षितोऽतिरिरंसयात्मा, सिद्ध्येतते कृतमनो भवधर्षिताया दीनस्तदीश भवनं सदृशं विचक्ष्व। मैत्रेय उवाच, प्रियायाः प्रियमन्विच्छन् कर्दमो योगमास्थितः, विमानं कामगं क्षत्तस्तर्येवा विरचीकरत्, सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितं, सर्वर्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम्, दिव्योपकरणोपेतं सर्वकालसुखावहं, पट्टिकाभिः पताकाभिर्विचित्राभिरलङ्कृतं, स्रग्भिर्विचित्रमाल्याभिर्मञ्जुसिञ्जत्सडङ्गृभिः, दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम्, उपर्युपरि विन्यस्तनिलयेषु पृथक् पृथक्, क्षिप्तैकशिपुपिः कान्तं पर्यङ्कव्यजनासनैः, तत्र तत्र विनिक्षिप्तनानाशिल्पोपशोभितम्, महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः, द्वास्सु विद्रुमदेहल्या भातं वज्रकपाटवत्, शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रितं, चक्षुष्मत्पद्मरागाग्रैर्वज्रभित्तिषु निर्मितैः, जुष्टं विचित्रवैतानैर्महार्हैर्हेमतोरणैः, हंसपारावतव्रातैस्तत्र तत्र निकूजितं, कृत्रिमान्मन्यमानैः स्वानधिरुह्याधिरुह्य च, विहारस्थानविश्रामसंवेशप्राङ्गणाजिरैः, यथोपजोषं रचितैर्विस्मापनमिवात्मनः, ईदृगृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा, सर्वभूताशयाभिज्ञः प्रावोचत्कर्दमस्वयं, निमज्यास्मिन् हृदे भीरु विमानमिदमारुह, इदं शुक्लकृतं तीर्थमाशिषां यापकं दृणां, सा तद्भर्तु समादाय वचः कुवलये क्षणा, सरजं बिभ्रति वासो वेणी भूतांश्च मूर्धजान्, अङ्गं च मलपङ्केन सञ्छन्नं शबलस्तनम्, आविवेश सरस्वत्याः सरः शिवजलाशयम्, शान्तः सरसिवेश्मस्था शतानि दशकन्यकाः, सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः, तां दृष्ट्वा स सोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः, वयं कर्मकरीस्तुभ्यं साधिनः करवाम किम्, स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम्, दुकूले निर्मले नूत्ने ददुरस्यै च मानदाः, भूषणानि परार्ध्यानि वरीयांसिद्युमन्ति च, अन्नं सर्वगुणोपेतं पानं चैवामृतासवम्, अथा दर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम्, विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम्, स्नातं कृतशिरःस्नानं सर्वाभरणभूषितम्, निष्कग्रीवं वलयिनं कूजत्काञ्चन नूपुरम्, श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया, हारेण च महार्हेण रुचकेन च भूषितम्, सुजता सुभ्रुवा लक्ष्ण स्निग्धापाङ्गेन चक्षुषा, पद्मकोशस्पृधा नीलैरलकैश्चलसन्मुखम्, यदा सस्मार ऋषभ ऋषीणां दयितं पतिं तत्र चास्ते सहस्त्रीभिर्यत्रास्ते सप्रजापतिः भर्तो पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत सतां कृतमलस्नानां विभ्राजन्तीमपूर्ववत् आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीं विद्याधरी सहस्रेण सेव्यमानां सुवाससं जातभावो विमानं तदारोहयदमित्रहन् तस्मिन्न लुप्तमहिमा प्रिययानुरक्तो विद्याधरीभिरुपचीर्णवपुर्विमाने बभ्राज उत्कचकुमुद्गणवानपीच्य स्तारभिरावृतैवोडुपतिर्नभस्थः तेनाष्टलोकपविहारकुलाचलेन्द्रद्रोणीष्वनङ्गसखमारुतसौभगासु सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु रेमे चिरं धनदवल्लनावरूथी वैश्रम्भके सुरसने नन्दने पुष्पभद्रके मानसे चैत्ररथ्ये च सरेमे रामया रतः भ्राजिष्णुना विमानेन कामगेन महीयसा वैमानिका नत्यशेत चरल्लोकान्यथा निलः किं दुरापादनं तेषां पुंसामुद्दामचेतसां यैराश्रितस्तीर्थपदश्चरणो व्यसनात्ययः प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्वसंस्थया बहुवाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत विभज्यनवधात्मानं मानवीं सुरतोत्सुकां रामां निरमयं रेमे वर्षपूगान्मुहूर्तवत् तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता न चाबुध्यततं कालं पत्यापीच्येन सङ्गता एवं योगानुभावेन दम्पत्योरममाणयोः शतं व्यतीयुः शरदः कामलालसयोर्मनाक् तस्यामाधत्तरेतस्तां भावयन्नात्मनात्मवित् नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद्विभुः अतस्रा सुषुवे सद्यो देवहूतिस्त्रियप्रजाः सर्वास्ताश्चारु सर्वाङ्ग्यो लोहितोत्पलगन्धयः पतिं सा प्रव्रजिष्यन्तं तदा लक्ष्यो सती स्मयमाना विक्लवेन हृदयेन विदूयता लिखन्त्यधो मुखी भूमिं पदानखमणिश्रिया उवाच ललितां वाचं निरुध्या श्रुकलां शनैः देवहूतिरुवाच सर्वं तद्भगवान् मह्यमुपोवाह प्रतिश्रुतम् अथापि मे प्रपन्नाया अभयं दातुमर्हसि ब्रह्मन् दुहितृभिस्तुभ्यं विमृग्याः पतयः समाः कश्चित् स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम् एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृतः अजानन्त्या परं भावं तथाप्यस्त्वभयाय मे सङ्गोय संसृतेर्हेतुरसत्सु विहितो धिया स एव साधुषु कृतो निःसङ्गत्वाय कल्पते नेह यत्कर्मधर्माय न विरागाय कल्पते न तीर्थपदसेवायै जीवन्नपि मृतो हि सः साहं भगवतो नूनं वञ्चिता मायया दृढम् यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने त्रयोविंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।